सुरतश्रम संभृतो मुखे ध्रियते स्वेदलवोद्गमोपिते अथ चास्तमिता त्वमात्मना धिगिमां देहभृताम् असारताम्।
सुरतेति सुरतश्रमेण संभृतः जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते अथ च त्वम् आत्मना स्वरूपेण अस्तम् नाशम् इता प्राप्ता। अतः कारणात् देहभृताम् प्राणिनाम् इमाम् प्रत्यक्षाम् असारताम् अस्थिरताम् धिक्।
मनसापि न विप्रियम् मया कृतपूर्वम् तव किम् जहासि माम्। ननु शब्दपतिः क्षितेरहम् त्वयि मे भावनिबन्धनारतिः।
मनसेति मया मनसापि तव विप्रियम् न कृतपूर्वम्। पूर्वम् न कृतमित्यर्थः। सुप्सुपेति समासः। किम् केन निमित्तेन माम् जहासि त्यजसि। नन्वहम् क्षितेः शब्दपतिः शब्दत एव पतिः न त्वर्थत इत्यर्थः। भावनिबन्धनाभिप्रायनिबन्धना स्वभावहेतुका मे रतिः प्रेम तु त्वय्येव अस्तीति शेषः।
कुसुमोत्खचितान्वलीभृतः चलयन् भृङ्गरुचस्तवालकान् करभोरुकरोति मारुतः त्वदुपावर्तनशङ्कि मे मनः।
कुसुमेति कुसुमैः उत्खचितान् उत्कर्षेण रचितान् वलीभृतः भङ्गीयुक्तान् कुटिलानित्यर्थः। भृङ्गरुचः नीलान् तव अलकान् चलयन् कम्पयन् मारुतः हे करभोरु करभसदृशोरु मणिबन्धादाकनिष्ठम् करस्य करभो बहिः इत्यमरः। मे मनः त्वदुपावर्तन शङ्कि तव पुनः आगमने शङ्कावत्करोति त्वदुज्जीवने शङ्काम् कारयतीत्यर्थः।
तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ज्वलितेन गुहागतम् तमः तु हि नाद्रेरिव नक्तमोषधिः।
तदिति हे प्रिये तत्तस्मात् कारणात् आशु मे विषादम् दुःखम् नक्तम् रात्रौ ओषधिः तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेः हिमाचलस्य गुहागतम् तमः अन्धकारमिव प्रतिबोधेन ज्ञानेन अपोहितुम् निरसितुम् अर्हसि।
इदमुच्छ्वसितालकम् मुखम् तव विश्रान्त कथम् दुनोति माम्। निशि सुप्तमिवैकपङ्कजम् विरताभ्यन्तरषट्पदस्वनम्।
इदमिति इदम् उच्छ्वसितालकम् चलितचूर्णकुन्तलम् विश्रान्तकथम् निवृत्तसंलापम् तव मुखम् निशि रात्रौ सुप्तम् निमीलितम् विरतः अभ्यन्तराणाम् अन्तर्वर्तिनाम् षट्पदानाम् स्वनः यत्र तत् निःशब्दभृङ्गम् इत्यर्थः। एकपङ्कजम् अद्वितीयम् पद्मम् इव माम् दुनोति परितापयति।
शशिनम् पुनरेति शर्वरी दयिता द्वन्द्वचरम् पतत्रिणम् इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न माम् दहेः।
शशिनमिति शर्वरी रात्रिः शशिनम् चन्द्रम् पुनरेति प्राप्नोति द्वन्द्वीभूय चरतीति द्वन्द्वचरः। तम् पतत्रिणम् चक्रवाकम् दयिता चक्रवाकी पुनरेति इति हेतोः तौ चन्द्रचक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ अन्तरमवकाशावधि परिधानान्तर्धि भेदतादर्थ्ये इत्यमरः अत्यन्तगता पुनरावृत्तिरहिता त्वं तु कथं न माम् दहेः न सन्तापयेः अपितु दहेरेवेत्यर्थः
नव पल्लव संस्तरे पिते मृदु दूयेत यदंगमर्पितं तदिदं विषहिष्यते कथं वदवामोरुचिताधिरोहणम्
नवेति नवपल्लव संस्तरे नूतन प्रवालास्तरणे प्यर्पितं स्थापितं मृदु ते तव यदंगं शरीरं दूयेत परितप्तं भवेत् वामौ सुन्दरौ ऊरु यस्यास्सा हे वामोरु वामं स्यात् सुन्दरे सव्ये इति केशवः संहित शफलक्षण इत्यादिना ऊङ् प्रत्ययः तदिदं अंगं चितायाः काष्ठसञ्चयस्य अधिरोहणं कथं विषहिष्यते वद
इयमप्रतिबोधशायिनीं रशनात्वां प्रथमारः सखी गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते
इयमिति इयं प्रथमा आद्या रहस्सखी सुरतसमयेऽपि अनुयानादिति भावः गतिविभ्रमसादेन विलासोपरमेण नीरवा निःशब्दा रशना मेखला अप्रतिबोधम् अपुनरुद्बोधम् यथा तथा शायिनीम् मृतामित्यर्थः त्वामनु त्वया सह तृतीयार्थे इति अनुशब्दस्य कर्मप्रवचनीयत्वात् कर्मप्रवचनीययुक्ते द्वितीया इत्यनेन द्वितीया शुचा शोकेन मृतेव न लक्ष्यते इति न लक्ष्यत एवेत्यर्थः सम्भाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ
कलमन्यभृतासु भाषितम् कलहंसीषु मदालसङ्गतम् पृषतीषु विलोलमीक्षितम् पवनाधूतलतासु विभ्रमाः त्रिदिवोत्सुकयाप्यवेक्ष्य माम् निहिताः सत्यममी गुणास्त्वया विरहे तव मे गुरुव्यथम् हृदयं नत्ववलम्बितुं क्षमाः
कलमिति युग्मम् उभयोः एकान्वयः अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणं कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम् पृषतीषु हरिणीषु विलोलम् ईक्षितम् चञ्चला दृष्टिः पवनेन वायुना आधूतलतासु ईषत्कम्पितलतासु विभ्रमाः विलासाः इत्यमी पूर्वोक्ताः कलभाषणादयः गुणाः एषु कोकिलादिस्थानेषु इति शेषः त्रिदिवोत्सुकया अपि इह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया माम् अवेक्ष्य विरहासहं विचार्य सत्यं निहिताः मत्प्राणधारणोपायतया स्थापिता इत्यर्थः तव विरहे गुरुव्यथम् अतिदुःखं मे हृदयं मनः अवलम्बितुं स्थापयितुं न क्षमाः न शक्ताः ते तु तत्सङ्गमे एव सुखकारिणः नान्यथा प्रत्युत प्राणान् अपहरन्तीति भावः
मिथुनम् परिकल्पितम् त्वया सहकारः फलिनी च नन्विमौ अविधाय विवाह सत्क्रियाम् अनयोर्गम्यत इत्यसाम्प्रतम्।
मिथुनमिति ननु हे प्रिये सहकारः चूतविशेषः फलिनी प्रियङ्गुलता च इमौ त्वया मिथुनम् परिकल्पितम् मिथुनत्वेन अभ्यमानि। अनयोः फलिनी सहकारयोः विवाहसत्क्रियाम् विवाहमङ्गलम् अविधाय अकृत्वा गम्यते इति असाम्प्रतम् अयुक्तम्। मातृहीनानाम् न किञ्चित् सुखमस्तीति भावः।
कुसुमम् कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति अलकाभरणम् कथम् नु तत् तव नेष्यामि निवापमाल्यताम्।
कुसुममिति वृक्षादिपोषकम् दोहदम् त्वया कृतम् दोहदम् पादताडनरूपम् यस्य सः अयम् अशोकः यत् कुसुमम् उदीरयिष्यति प्रसविष्यते। तव अलकानाम् आभरणम् आभरणभूतम् तत् कुसुमम् कथन्नु केन प्रकारेण निवापमाल्यताम् दाहाञ्जलेः अर्घ्यताम् नेष्यामि। निवापः पितृदानम् स्यात् इत्यमरः।
स्मरतेव सशब्दनूपुरम् चरणानुग्रहमन्यदुर्लभम् अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे।
स्मरते वेति अन्यदुर्लभम् किन्तु स्मर्तव्यमेवेत्यर्थः। सशब्दम् ध्वनियुक्तम् नूपुरम् मञ्जीरम् यस्य तम् चरणेन अनुग्रहम् पादेन ताडनरूपम् स्मरतेव चिन्तयतेव कुसुमानि एव अश्रूणि तद्वर्षिणा अमुना पुरोवर्तिना अशोकेन। हे सुगात्रि अङ्गगात्रकण्ठेभ्यश्च इति वक्तव्यात् ङीप् त्वम् शोच्यसे।
तव निःश्वसितानुकारिभिः बकुलैरर्धचिताम् समम् मया असमाप्य विलासमेखलाम् किमिदम् किन्नरकण्ठि सुप्यते।
तवेति तव निःश्वसितानुकारिभिः वकुलैः वकुलकुसुमैः मया समम् सार्धम् अर्धचिताम् अर्धम् यथा तथा रचिताम् विलासमेखलाम् असमाप्य अपूरयित्वा किन्नरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्सम्बुद्धिः हे किन्नरकण्ठि। अङ्गगात्रकण्ठेभ्यश्च इति ङीप् किमिदम् सुप्यते निद्राक्रियते वचिस्वपि इत्यादिना सम्प्रसारणम् अनुचितमिदम् स्वपनम् इत्यर्थः।
समदुःखसुखः सखी जनः प्रतिपच्चन्द्रनिभोऽयमात्मजः अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः।
समेति सखीजनः समदुःखसुखः त्वद्दुःखेन दुःखी त्वत्सुखेन सुखी इत्यर्थः। अयम् आत्मजः बालः प्रतिपच्चन्द्रनिभः दर्शनीयः वर्धिष्णुश्च इत्यर्थः। प्रतिपच्छब्देन द्वितीया लक्ष्यते प्रतिपदि चन्द्रस्य अदर्शनात्। अहम् एकरसः अभिन्नरागः शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्यमरः। तथापि जीवितसामग्रीसत्त्वेऽपीत्यर्थः। ते तव व्यवसायः अस्मत्परित्यागरूपः व्यापारः ప్రతిపత్యా నిశ్చయేన నిష్ఠురః క్రూరః. ప్రతిపత్తిః పదప్రాప్తౌ ప్రకృతౌ గౌరవేపి చ ప్రాగల్భ్యే చ ప్రబోధే చ ఇతి విశ్వః. స్మర్తుం న శక్యః కిముత అధికర్తుం ఇతి భావః.
ధృతిరస్తమితారతిశ్యుతా విరతం గేయమృతుర్నిరుత్సవః గతమాభరణ ప్రయోజనం పరిశూన్యం శయనీయమద్యమే.
ధృతిరితి అద్య మే ధృతి ధైర్యం ప్రతీతిర్వా అస్తం నాశం ఇతా. రతి క్రీడా శ్యుతా గతా. గేయం గానం విరతం. ఋతుర్వసంతాదిః నిరుత్సవః. ఆభరణానాం ప్రయోజనం గతం అపగతం. శేతే అస్మిన్నితి శయనీయం తల్పం. కృత్యల్యుటో బహుళం ఇత్యధికరణార్థే అనీయర్ ప్రత్యయః. పరిశూన్యం త్వాం వినా సర్వం అపి నిష్ఫలం ఇతి భావః.
గృహిణీ సచివః సఖీమిథః ప్రియశిష్యా లలితే కళావిధౌ కరుణా విముఖేన మృత్యునా హరతా త్వాం వద కిం న మే హృతం.
గృహిణీతి త్వమేవ గృహిణీ దారాః అనేన సర్వం కుటుంబం త్వదాశ్రయమితి భావః. సచివః బుద్ధిసహాయః మంత్రీ. సర్వః హితోపదేశః త్వదాయత్త ఇతి అనేన ఉచ్యతే. మిథో రహసి సఖీ నర్మ సచివః. సర్వోపభోగః త్వదాశ్రయ ఇత్యమునా ప్రకటితం. లలితే మనోహరే కళావిధౌ వాదిత్రాది చతుష్షష్టి కళాప్రయోగే ప్రియశిష్యా. ప్రియత్వం ప్రాజ్ఞత్వాదిత్యభిసంధిః. సర్వానందః అనేన త్వన్నిబంధన ఇతి ఉద్ఘాటితం. అతః త్వాం సమష్టిరూపాం హరతా అత ఏవ కరుణావిముఖేన కృపాశూన్యేన మృత్యునా మే మత్సంబంధి కిం వస్తున హృతం వద. సర్వమపి హృతమిత్యర్థః.
మదిరాక్షి మదాననార్పితం మధుపీత్వా రసవత్కథం ను మే. అనుపాస్యసి బాష్పదూషితం పరలోకోపనతం జలాంజలిం.
మదిరేతి మాద్యతి అనయా ఇతి మదిరా లోకప్రసిద్ధా. తథాపి నార్యో మదిరలోచనాః ఇత్యాది ప్రయోగదర్శనాత్ మాద్యతి ఆభ్యామితి మదిరే అక్షిణీ యస్యాః తత్సంబుద్ధిః హే మదిరాక్షి. మదాననేన అర్పితం రసవత్స్వాదుతరం మధు మద్యం పీత్వా బాష్పదూషితం అశ్రుతప్తం పరలోకోపనతం పరలోకప్రాప్తం మే జలాంజలిం తిలోదకాంజలిం కథం ను అను అనంతరం పాస్యసి. తదనంతరం ఇదం అనర్హమిత్యర్థః. యథాః భట్టమల్లః అనుపానం హిమజలం యవగోధూమనిర్మితే దధ్ని మద్యే విషే ద్రాక్షే పిష్టే పిష్టమయేపి చ ఇతి. తచ్చ ఇహైవ యుజ్యతే. ఇదంతు ఉష్ణం లోకాంతరోపయోగి చ ఇత్యాయుర్వేద విరోధాత్ కథమనుపాస్యసీతి భావః.
విభవేపి సతి త్వయా వినా సుఖమేతావదజస్య గణ్యతాం అహృతస్య విలోభనాంతరైః మమ సర్వే విషయాస్త్వదాశ్రయాః.
విభవ ఇతి విభవే ఐశ్వర్యే సత్యపి త్వయా వినా అజస్య ఏతావదేవ సుఖం గణ్యతాం. यावत्त्वया सह भुक्तम् ततः अन्यन्न किञ्चित् भविष्यतीत्यर्थः कुतः विलोभनान्तरैः विषयान्तरैः अहृतस्य अनाकृष्टस्य मम सर्वे विषयाः भोगादयः त्वदाश्रयाः त्वदधीनाः त्वाम् विना मे न किञ्चित् रोचते इत्यर्थः
विलपन्निति कोसलाधिपः करुणार्थग्रथितम् प्रियाम् प्रति अकरोत् पृथिवीरुहानपि श्रुतशाखारसबाष्पदूषितान्
विलपन्निति कोसलाधिपः अजः इति करुणः शोकरसः स एवार्थः तेन ग्रथितम् सम्बद्धम् यथा तथा प्रियाम् प्रति इन्दुमतीम् उद्दिश्य विलपन् पृथिवीरुहान् वृक्षानपि श्रुताः शाखारसाः मकरन्दा एव बाष्पाः तैः दूषितान् अकरोत् अचेतनानपि अरोदयत् इत्यर्थः।